शिवं शान्तमिदं वरं लोकपालं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।
चित्तेन भक्त्या च नित्यं भवाम्भो निधिं।